ओम नमो भगवते वासुदेवाय। अर्जुन उवाच, ये शास्त्र विधिमुत्सृज्या यजन्ते श्रद्धयान्विताः तेषां निष्ठा तु का कृष्णास्तत्त्वमहोरजस्तमः। श्री भगवान उवाच, त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा, सात्त्विकी राजसी जैवा तामसी चेतसां शृणु। सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत, श्रद्धा मयोयं पुरुषो यो यच्छ्रद्धा स एव सः। यजन्ति सात्त्विका देवान् यक्षरक्षांसि राजसाः, प्रेतान् भूतगणांश्चाग्ने यजन्ति तामसा जनाः। अशास्त्रविहितं घोरं पप्यन्ति यतभोजनाः, दम्भाहङ्कारसंयुक्ताः कामरागफलान्विताः। कर्षयन्तःशरीरस्थं भूतग्रहमचेतसः, मां जैवान्तःशरीरस्थं तान् विद्यासुरनिश्चयान्। आहारस्तपि सर्वस्या त्रिविधो भवति प्रियः, यज्ञस्तपस्तथा दानं तेषां भेदमिदं शृणु। आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः, रस्या स्निग्धा स्थिरा हृद्या आहारा सात्विकप्रियाः। कट्वम्लवणात्युष्णतीक्ष्णरुक्षविदाहिनः, आहारा राजसस्येष्टा दुःखशोकामयप्रदाः। यातयां गतरसं भूतिपरिषृतं चेत् उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्। अफलाकाङ्क्षिप्रियज्ञो विधिदृष्टो युज्यते, यष्टव्यमेवेति मनः समाधाय स सात्विकः। अभिसन्दाय तु फलं दम्भार्थमनुदेवयत्, युज्यते भरतश्रेष्ठा तं यज्ञं विद्धिराजसम्। विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणं, श्रद्धाविरहितं यज्ञं तामसं परिजक्षते। देवद्विजगुरुप्राज्ञभोजनं शौचमार्जवं, ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते। अनुद्वेगकरं वाक्यं सत्यं प्रियहितं जयत्, स्वाध्यायाभ्यसनं जैवा वाङ्मयं तप उच्यते। मनः प्रसादसौम्यत्वं मौनमात्मविधिग्रहः, भावसंशुद्धिरित्येतत्तपो मानसमुच्यते। श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः, अफलाकाङ्क्षिभिर्युक्तैः सार्थिकं परिचक्षते। सत्कारमानपूजार्थं तपो दम्भेन जीवयत्, क्रियते ततिह प्रोक्तं राजसं जलमध्रुवम्। मूढग्राहेणात्मनो यत्पीडया क्रियते तपः, परस्योत्सादनार्थं वा दत्तामसमुदाहृतम्। दातव्यमिति यद्दानं दीयते नुपकारिणे, देशे काले च पात्रे च तद्दानं दात्विकं स्मृतम्। यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः, दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्। अदेशकाले यद्दानम् अपात्रेभ्य दीयते, असत्कृतमवज्ञातं तत्तामसमुदाहृतम्। ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधस्मृतः, ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा। तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः, प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्। तदित्यनभिसन्धाय फलं यज्ञतपः क्रियाः, दानक्रियाश्च विधाः क्रियन्ते मोक्षकाङ्क्षिभिः। सद्भावे साधुभावे च सदित्य एतत्प्रयुज्यते, प्रजस्ते कर्मणि तथा सच्छब्दः पार्थयुज्यते। यज्ञे तपसि दाने च स्थितिः सदिति जोच्यते, कर्म चैव तदर्थीयं तदित्येवाभिधीयते। अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं चेत् असदित्युच्यते पार्थः, न च तत्प्रेत्यनो इह। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः।